हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्यमयीं लक्ष्मी जातवेदो मावह आवह जातवेदो लक्ष्मी मन पगामिनी यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनी श्रियं देवीमुपह्वये श्रीर्मा देवी रजुषता सुस्मितां हिरण्यप्राकारां आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां व्रणे ॐ आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायांश्च बाह्या अलक्ष्मीः पैतु मां देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे ॐ क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् अभूतिम् असमृद्धिं च सर्वां निरुणुद मे गृहात् क्रुद्धद्वारां दुराधर्षां नित्यपुष्टां करिषिणी ईश्वरीं सर्वभूतानां तामीहोपवहये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः कर्दमेन प्रजाभूत मयि संभव कर्दम श्रियं वासय मे कुले मातरं पद्ममालिनी आपहस्रजन्तु स्निग्धानि चिक्लीत बस मे गृहे निं च देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरण्यमयीं लक्ष्मीं जातवेदो मावह आर्द्रां यष्करिणीं यष्टिं सुवर्णां हेममालिनी सूर्यां हिरण्यमयीं लक्ष्मी जातवेदो म आवह जात वेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्यो अश्वान् विन्देयं पुरुषानहम् अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवी सर्वकामाश्च देहि मे यः शुचिः प्रयतो भूत्वा जुहुयाद आज्यमन्वहम् श्री श्रियः पञ्चदशर्चञ्च श्रीकामः सततं जपेत्
श्रियै देव्यै स्वाहा।